नमस्ते अद्य शिक्षावर्गस्य द्वादशः पाठः आगस्ट् मासस्य पञ्चविंशः दिनाङ्कः अद्य श्वः च पूर्णिमा श्रावणमासस्य पूर्णिमा संस्कृतदिनम् इति आचर्यते सर्वेषां संस्कृतदिनस्य शुभाशयाः गुरुरेव गतिः गुरुमेव भजे गुरुणैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरौ मम पाहि गुरो गतवर्गे अधीतस्य किञ्चित् पुनरावर्तनं कुर्मः व्याकरणांशेषु अनुनासिकसन्धिः अधीतः तस्य उदाहरणानि अपि दृष्टानि अभ्यासः कृतः केषाञ्चन भगवद्गीताश्लोकानाम् अध्ययनं कृतम् लौकिकन्यायाः बहवः दृष्टाः अनुनासिकसन्धेः नियमं पुनरेकवारं पश्यामः जश्वर्णः वर्गस्य तृतीयः वर्णः तस्य अनुनासिके परे यदा अग्रे अनुनासिकवर्णः भवति अनुनासिकवर्णः अत्र वर्गस्य पञ्चमः वर्णः तदा तृतीयवर्णस्य स्थाने पञ्चमः वर्णः तस्य वर्गस्य पञ्चमः आदेशः भवति सः अनुनासिकसन्धिः इत्युच्यते तत्र अभ्यासः अस्ति ये वक्तुमिच्छन्ति हस्तम् उन्नयन्तु शोभा
नमस्ते महोदय सकृत् प्लस् निवेदनं सकृन् निवेदनम्
सकृन् निवेदनम् सो आदौ जष्ट्वं भवति सकृद् निवेदनम् ततः अनुनासिकसन्धिः सकृन् निवेदनम् सकृत् एकवारं निवेदनम् प्रार्थना अथवा विज्ञापनम् इत्यर्थः
तद् प्लस् निमित्तम् तन्निमित्तम्
तन्निमित्तम् अत्रापि दकारस्य स्थाने नकारः आदेशः तस्य वर्गस्य अनुनासिकः तन्निमित्तं तेन कारणेन इत्यर्थः धन्यवादाः रामकृष्णराव महोदय
सम्राण्णयति
सम्राण्णयति दकारस्य स्थाने णकारः
दिग्मूढः दिग्मूढः दिक्ककार दिग्मूढः
जष्ट्वे कृते दिग् मूढः भवति ततः अनुनासिके कृते दिङ्मूढः
दिङ्मूढः
दिङ्मूढः धन्यवादः सो सम्राट् नयति सम्राट् सार्वभौमः नयति इत्यर्थः दिङ्मूढः यः किं कर्तव्यम् इति न जानाति सः दिङ्मूढः इत्युच्यते पदस्यार्थः तु का दिक् का पूर्वादिक् का उत्तरादिक् इति दिशः एव न जानाति कुत्र गन्तव्यं किं कर्तव्यम् इति किमपि यः न जानाति सः दिङ्मूढः इत्युच्यते रामानुजम्
ओ नमस्ते यद् प्लस् मण्डलम् यन्मण्डलम्
यन्मण्डलम् डकारस्य नकारः
संबद मान्यथा संपन्न मान्यथा
संपन्न मान्यता धन्यवाद उभयत्रापि दकारस्य स्थाने नकारः भवति सो संपदः मान्यता तस्य कृते गौरवम् इत्यर्थः पद्मनाभस्य
विराट नगरी विरान नगरी तकारस्य स्थाने
नकारः भवति नकारस्य स्थाने नकारः
सुहृद् नाम becomes सुहृन्नाम दकारस्य अनुनासिक दकार वर्गीयस्य अनुनासिक वर्णः नकार एव सुहृन्नाम
सम्यक् सुहृन् नाम सुहृदः मित्रस्य नाम इत्यर्थः विराण्नगरी विराटस्य नगरी विराण्नगरी मञ्जु गुप्ता
एतद् नश्वरम् एतन् नश्वरम्
एतन् नश्वरम् सम्यक्
तस्मात् नीडात् तस्मान् नीडात्
तस्मान् नीडात् सम्यक् सो एतद् नश्वरं क्षणिकं शीघ्रं नश्यति इत्यर्थः तस्मात् नीडात् तत्तु ज्ञायते अग्रे सन्धेः विभागः कर्तव्यः महेश्वरी
नमस्ते नमस्ते सर्वेभ्यः अहं प्रयत्नं करोमि अहं पूर्वम् अहं न आगतवती गतकक्षायां
चिन्ता नास्ति वदतु वदतु प्रयत्नं करोतु क्लेशः
नास्ति त्वन् निवासः त्वत् निवासः त्वद् निवासः
सम्यक् सो त्वत् निवासः अथवा त्वद् निवासः उभयं वक्तुं शक्यते सो त्वत् भवति ततः दृष्ट्वेन त्वद् निवासः ततः त्वन्निवासः सो तव निवासः इत्यर्थः सत् नमनं सद् नमनं सन्नमनम् सम्यक् सत् नमनम् इत्यपि युक्तमेव सो सतां नमनं सज्जनानां नमस्कारः इत्यर्थः सत् नमनं जष्ट्वे सद् नमनं ततः सन्नमनम् महालक्ष्मी
गुरुभ्यो नमः षण् नामानि षट् नामानि और् षट् नामानि
षड् नामानि षण्णामानि अत्र सन्धिद्वयम् अस्ति षड् नामानि डकारस्य णकारः भवति अनुनासिकसन्धिः अनुनासिके परे अनुनासिकः अत्र नकारस्य णकारः ष्टुत्वं षण्णामानि किन्तु
जगन् नियामकः जगत् नियामकः जगद् और् जगत्
जगद् नियामकः सम्यक् धन्यवादः ललिता सिंह
थैंक यू धन्यवाद नमस्ते षण् मासः षट् मासः षट् विल् बिकम् षड् like previous example.
Satyam, samyak. So, shat masaha, shad masaha, shan masaha. Samyak.
Vipinni vedanam. Vipad nivedanam and ta will become the vipad nivedanam.
Samyak. So vipad nivedanam, vipan nivedanam. So vipad apat
nivedanam,
apataha nivedanam, prarthana. Samyak. Avinash Vaidya.
Ishan madhuram. It is Ishad plus madhuram.
Samyak. Ishad plus madhuram. Ishan madhuram. So, kinchit madhuram ityartha.
Ishan madhuram. Bishad plus mama.
Bhishag plus mama. Bhishag becomes bhishag. And then Bhishag.
Okay. Bhishag plus
mama vaidyaha ityartha. Samyak. Anybody else wants to attempt? Usha P.
Munoha. Gunavan Mitraha. Gunavad Atva Gunavad Mitram.
Mitram. Gunavad Mitram. Gunavan Mitram. So Uttama Gunavan Gunavan Kashchit Suhrad Ityarthaha.
San Manushyaha. Sad manushyaha,
sat manushyaha. Sad manushyaha, san manushyaha, sad janaha, ityartha. Anunasika sandhihi, jnataha, iti bhavayami. Tatra kena chitrushtam, dikmodaha katham bhavati iti punaha vadatuti. Yatha gatavarge uktam, yatra vargasya prathamaha varnaha bhavati. Yatha dik iti tatra adau jashtvam bhavati jashtvena gakaraha bhavati dik ityasya dig mudhaha tataha anunasika sandhihi bhavati ding mudhaha. So samanyataha saeva kramaha adau jashtvam tataha anunasika sandhihi. Agre gachhamaha. So agrima sandhehe purvam kinchidiva sandhehe moola amshanam punaravartanam kurmaha. Adau adhitam sandhi sandhihi ityatra amshatrayam athava padatrayam jnatavyam bhavati samhita sandhihi tatha sandhikaryam iti tatra samhita nama varnanam atishayitaha sannidhihi athava samipyam yada dvayohu varnayohu atyantam samipyena uccharanam bhavati sa samhita ityuchyate yatra samhita evam varnanam samipyam vidyate tatra kadachit varna vikaraha bhavati varnanam bhedaha parivartanam bhavati saha sandhihi ityuchyate. So sandhihi varnakaryam bhavati padakaryam na ataha padam bhavediti nasti varnasya bhavati sandhihi. Sandhi karyam, sandhihi ityukte parivartanam, tat parivartanam trividham bhavitum arhati. Adeshaha agamaha athava lopaha. Adeshaha ityukte ekasya varnasya sthane anyasya varnasya uccharanam. Yatha bhagavat gita इत्यस्ति तत्र भगवत् इत्यत्र तकारः अस्ति यदा वयं संधिं कुर्मः तदा तकारं विहाय तकारस्य स्थाने दकारस्य उच्चारणं कुर्मः भगवद्गीता इति सः आदेशः इत्युच्यते आगमः अस्ति यत्र नूतनस्य वर्णस्य उच्चारणं भवति पूर्वं विद्यमानाः सर्वेपि वर्णाः तथैव भवन्ति तेन सह नूतनस्य कस्यचित् वर्णस्य उच्चारणं भवति उदाहरणार्थं मम छात्रः इत्यस्ति तत्र उच्चारणे मम छात्रः मध्ये नूतनस्य चकारस्य उच्चारणं भवति सः आगमः इत्युच्यते लोपः विद्यमानस्य वर्णस्य अदर्शनम् अनुच्चारणं लोपः बालाः अत्र इत्यत्र पूर्वं विसर्गः अस्ति ततः न दृश्यते बाला अत्र इत्येव उच्यते सः लोपः एवं सन्धिकार्यं त्रिविधं भवति आदेशः आगमः लोपः एतावत्पर्यन्तं ये ये सन्धयः दृष्टाः ते सर्वेपि आदेशसन्धयः एकस्य वर्णस्य स्थाने अन्यः वर्णः उपयुज्यते अद्य वयम् एकम् आगमं पश्यामः आगमः नूतनस्य वर्णस्य योजनं भवति सन्धेः नाम भवति ङमुडागमसन्धिः इति सन्धेः नाम्नि एव क्लेशः सन्धिः तु वस्तुतः अत्यन्तं सरलः सर्वस्मिन्नपि देवः अस्ति इति वाक्यं तत्र सर्वस्मिन्नपि इत्यस्ति सर्वस्मिन् न अपि इत्यस्ति वस्तुतः तत्र पदद्वयं सर्वस्मिन् इति एकं पदम् अपि इति अपरं पदं मध्ये एकस्य नकारस्य योजनं भवति सः नकारः आगमः पूर्वं नासीत् इदानीम् उच्चार्यते अतः आगमः नकारस्य आगमः भवति बालकः रुदन्नागतः रुदन् आगतः तत्र रुदन् आगतः इति अस्ति मध्ये एकः नकारः अस्ति रुदन्नागतः अस्मिन् औषधे उत्तमगुणास्सन्ति अस्मिन् औषधे इति स्थिते मध्ये नकारस्य आगमः अस्मिन् न औषधे अस्मिन् औषधे इति भवति एतानि ङमुडागमसन्धेः उदाहरणानि तर्हि कुत्र भवति नकारस्य आगमः इति चेत् ह्रस्वस्वरः भवति ह्रस्वस्वराद् अनन्तरं नकारः तस्य अग्रे स्वरः सो मध्ये नकारः भवति यथा अत्र सर्वस्मिन् अपि इत्यस्ति सो नकारः अस्ति नकारात् पूर्वं ह्रस्वस्वरः सर्वस्मिन् रुदन् इत्यत्र अ सर्वस्मिन् इत्यत्र इ एवम् अस्मिन् इत्यत्र इ सो नकारः नकारात् पूर्वं ह्रस्वस्वरः नकारात् अनन्तरं यः कोऽपि स्वरः ह्रस्वः अपि भवति दीर्घः अपि भवति आगतः औषधे इति सो एवं यत्र अस्ति सो ह्रस्वस्वरः ततः नकारः स्वरः सो नकारस्य पूर्वं ह्रस्वस्वरः परं स्वरः यः कोऽपि स्वरः तदा तत्र एकस्य नकारस्य योजनं भवति सो नूतनः नकारः आगमः भवति एषः सन्धिः ह्रस्वस्वरः इत्यस्य कः अर्थः इति पृच्छ्यते ह्रस्वः दीर्घः प्लुतः अस्मिन् वर्गे न उक्तः सामान्यतः ज्ञायते इति. स्वराः त्रिविधाः भवन्ति तेषां दैर्घ्यम् आश्रित्य. सो अ इति उच्चार्यते चेत् सः ह्रस्वः, शार्ट् वोवेल् इत्युच्यते. आ इति दीर्घः, लाङ्ग् वोवेल्. सो प्लुतः अपि भवति कदाचित्. सो आ इति तस्य मात्रा इति वदामः. प्रमाणम् अ इति उच्चारणे एका मात्रा, यत्र यस्य स्वरस्य एका मात्रा भवति सः ह्रस्वः. अ इ उ इत्यादयः ह्रस्वस्वराः. आ इ उ इत्यादि मात्राद्वयेन उच्चारणं यस्य भवति सः स्वरः दीर्घः. मात्रात्रयम् अथवा ततोप्यधिकं भवति चेत् प्लुतः. सो पूर्वं ह्रस्वः, परं यः कोऽपि स्वरः अस्ति चेत् मध्ये नकारः भवति. एषः गमुडागमसन्धिः. किञ्चित् अभ्यासं कुर्मः. ये वक्तुमिच्छन्ति हस्तमुन्नयन्तु. एकं क्षणम्. स्वयं प्रभा.
नमस्ते भगिनी.
हा.
सन् अन्तः, सन्नन्तः.
सन्नन्तः, सन् अन्तः, सन्नन्तः. नकारः पूर्वं ह्रस्वः, परं स्वरः सन्नन्तः.
तान् अत्र, तान्नत्र. तान् अत्र, तान्नत्र.
तान्नत्र इति भवति वा? नकारः अस्ति पूर्वं, दीर्घः अस्ति.
ओ दीर्घः अस्ति, ओके. तानत्र,
तानत्र. अत्र गमुडागमसन्धिः न भवति. पूर्वं दीर्घस्वरः अस्ति चेत् सन्धिः न भवति. सम्यक्, धन्यवादः.
हा, नमस्ते. स्वामिन् प्लस् अद्य, स्वामिन्नद्य.
स्वामिन्नद्य. सो स्वामी इत्यत्र इकारः ह्रस्वस्वरः, नकारः अग्रे स्वरः. स्वामिन्नद्य.
प्राणान् एव अत्र नमुडागमसन्धि न भवति. प्राणानेव,
प्राणानेव. अत्रापि पूर्वं दीर्घः अस्ति तदा सन्धिः न भवति. देर् इस् नो सन्धि एट् आल्. पूर्वं यथा आसीत् तथैव भवति. प्राणानेव. धन्यवादः. अविनाश वैद्य.
नमस्ते मैम. कुर्वन् याति. कुर्वन् इट इज ह्रस्व बिकॉज व इज ओनली अ. सो कुर्वन् याति, कुर्वन् याति.
पूर्वं ह्रस्वः किन्तु अग्रे किमस्ति?
अग्रे इट इज नॉट स्वर, इट इज ए व्यञ्जन.
Correct.
So it is only kurvanyati. Okay.
satyam. So atrapi sandhihi na bhavat. So you have to see both asmin sandhau purvam param ubhayam prashtav.
Okay. Gachan eva. Gachan, it is rasva before and afterwards it's a swara. So gachan eva.
Gachan eva. Atra sandhihi bhavati. Purvam hrasva swaraha asti, parataha swaraha asti, ataha gachan eva ityatra bhavati. So ngamudagama sandhihi nakaraha bhavati, nakarat purvam hrasva swaraha, param swaraha evam asti chet saha ngamudagama sandhihi. Atra keshanchana padanam arthaha pruchyate sannantaha iti pratyayaha, san iti pratyayaha yatha subanta singanta ityadi vyakarana shastre vyavaharaha asti. Nama padani subantaha iti uchyante evam kriya padani tingantaha krudantaha iti evam sannantaha san iti kashchit pratyayaha. So tan atra nyayate swamin iti sambodhanam adya prananeva kurvan yati yati gachati ityarthaha gachanneva. So idanim sandhehe vibhagaha kartavyaha. Sandhihi diyate sandhehe vibhagaha kartavyaha. Padmanabhan Ayyar.
Patan naha vibhagaha patan aha.
Patan aha patan naha ngamudagama sandhihi patan nakaraha purva makaraha agre swaraha.
Man nama sandhi vibhage man nama padan mad nama jastva sandhi for mat nama.
Jastva sandhihi anunasika sandhihi, right?
Yeah.
So mad nama man nama, so dakarasya sthane nakaraha anunasika sandhihi. So kimartham etad dattam yatra yatra nakara dvayam shruyate tatra sarvatra ngamudagama sandhihi iti na. So man nama ityatra mad nama mama nama ityarthaha. So mad nama iti sthite dakarasya nakaraha bhavati man nama. Artham anusritya sandhi vibhagaha kartavyaha. Manju Gupta.
Kurvan neva kurvat eva.
Kurvan eva.
Oh, kurvan eva. Yeah, kurvan eva. This is a dumadagama sandhi.
Ngamudagama sandhi. Kurvan eva.
Yeah.
Da. Ngamudagama sandhi. Kurvan eva. So nakaraha purvam hrasva swaraha agre swaraha.
Swaraha. Phalam nayati. Yeah. Yeah, phalam nayati.
Phalam nayati. Sandhihi parasavarna sandhihi. Eta drishtam anusvarasya nakare pare nakaraha bhavati parasavarna sandhihi. Phalan nayati. Phalam nayati. Phalan nayati. Samyak. Dhanyavadaha. Agre. Shobha
लिखन नास्ति लिखन नास्ति ममुरागमसंधि
लिखन
लिखन नास्ति ओ लिखन नास्ति ओ इतने ममुरागमसंधि ही ना भवति आ
कहाँ संधि है
आ लिखन नास्ति
कः वर्णः परिवर्तितः अस्ति लिखन् नास्ति लिखन् नास्ति
ओ परिवर्तनम् अत्र किमपि परिवर्तनं नास्ति
नास्ति अतः सन्धिः नास्ति लिखन् नास्ति
सन्धिः एव
नास्ति सन्धिः न भवति
हसन् अवदत् हसन् अवदत् एतत् नमुडागमसन्धिः
सत्यं सो हसन् अवदत् हसन् अवदत् नमुडागमसन्धिः सम्यक् धन्यवादः सो यत्र नकारद्वयं भवति तत्र सावधानं द्रष्टव्यं पूर्वं नकारः नास्ति इदानीं नकारद्वयं दृश्यते चेत् सः ङमुडागमसन्धिः सो पूर्वम् अन्यः वर्णः आसीत् तस्य स्थाने नकारः चेत् यथा मद् नाम दकारस्य स्थाने नकारः सः अनुनासिकसन्धिः फलन्नयति इत्यत्र अनुस्वारस्य स्थाने अनुनासिकः सः परसवर्णसन्धिः ओके सो यथा यथा सन्धीनाम् अध्ययनं कुर्मः सो प्रत्येकं सन्धिः ज्ञातव्यः यदा मिलित्वा पश्यामः तदा कुत्र कः सन्धिः इति भेदः अपि ज्ञातव्यः यथा केचित् वदन्ति अत्र कुत्रचित् यू केन् स्प्लिट् इट् इन् मल्टिपल् वेस् यथा लिखन् नास्ति इत्यत्र लिखत् नास्ति इत्यपि छेदः वक्तुं शक्यते यदि नपुंसकलिङ्गम् यथा बालः इति चेत् बालः लिखन् नास्ति सो न लिखति इत्यर्थे भवति यदि मित्रम् इति उच्यते तदा मित्रं लिखत् इति नपुंसकलिङ्गे भवति तदा लिखत् नास्ति लिखन् नास्ति इति भवति तत्र अनुनासिकसन्धिः सो प्रसङ्गम् आश्रित्य कदाचित् भेदः वक्तव्यः भवति एवमेव यदि फलत् नयति इति भवति किन्तु वाक्ये तस्य अर्थः भवति वा इति द्रष्टव्यम् सो फलं नयति इत्यस्य अर्थः भवति फलत् नयति इति चिन्तनीयम् सो थियोरेटिकलि भवितुम् अर्हति केवलं व्याकरणनियमं पश्यामः चेत् फलत् नयति फलं नयति इति भवति किन्तु फलत् नयति इति प्रयोगः युज्यते वा इति चिन्तनीयम् अग्रे अन्तिमः अंशः सन्धेः अस्य सन्धेः विषये ङमुडागमसन्धिः इति उच्यते किं तत् इति वस्तुतः एषः सन्धिः केवलं नकारस्य न ङकारः णकारः तयोः अपि भवति यथा ह्रस्वस्वरः मध्ये ङकारः अग्रे स्वरः अस्ति चेत् तत्र ङकारद्वयं भवति अर्थात् ङकारस्य आगमः भवति एवमेव णकारः अस्ति चेत् तत्र णकारस्य आगमः भवति अत एव ङमुट् आगमः इति उच्यते आदौ उदाहरणं पश्यामः उदाहरणानि अत्यन्तं न्यूनानि नकारस्य तादृशानि पदानि न भवन्ति. नकारस्य नकारान्तानि पदानि बहूनि लभ्यन्ते, किन्तु नकारस्य वा णकारस्य वा उदाहरणम् अत्यन्तं न्यूनं कदाचिदेव भवति. यथा प्रत्यङ् आत्मा इत्यस्ति, नकारः पूर्वं ह्रस्वस्वरः अग्रेस्वरः, तत्र प्रत्यङ्गात्मा इति नकारद्वयं भवति. वेदान्ते प्रसिद्धः शब्दः प्रत्यङ् प्रत्यङ्गात्मा इति उच्यते. पारिभाषिकं पदं, तस्य तथा सरलतया अर्थः वक्तुं न शक्यते. आत्मनः विषये वेदान्ते उच्यते प्रत्यङ्गात्मा इति. तत्र नकारद्वयम् अस्ति. एवं सुगण् ईशः इत्यस्ति चेत् सो णकारः पूर्वम् अकारः अग्रेस्वरः, सुगण्णीशः. सुगण् यः सम्यक् गणयति सः सुगण् इत्युच्यते. सुगण्णीशः इति भवति. सो उदाहरणं दातव्यम् इति एकैकम् उदाहरणं दीयते, तेषाम् अधिकतया उपयोगः न भवति. तत्र ङमुट् इति व्याकरणशास्त्रस्य पदम्. ये प्रत्याहाराणां विषये जानन्ति ते अवगच्छेयुः, ङम् इति प्रत्याहारः, ङणान ङमाङणानम् इति माहेश्वरसूत्रे ङणान, तेषाम् अक्षराणां ङम् इति प्रत्याहारः. ते तित् आगमाः, अतः ङमुट् इति उच्यते. सो इट् इस् अ टेक्निकल् टर्म् स्पेसिफिक् टु व्याकरण. ये न अधीतवन्तः माहेश्वरसूत्राणां विषये वा आगमानां विषये वा न जानन्ति, तस्य विषये चिन्ता मास्तु. किन्तु नामधेयस्य सन्धेः नामधेयस्य इदं कारणं. तत्र ङम् इत्युक्ते ङ ण न, एतेषां त्रयाणां वर्णानाम् आगमः भवति, अतः सन्धिः ङमुडागमसन्धिः इति उच्यते. केऽपि प्रश्नाः सन्ति चेत् पृच्छन्तु. अग्रे गच्छामः. काव्यांशः तत्र भगवद्गीतायाः त्रयः श्लोकाः अवशिष्टाः सन्ति. तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान् स्वबान्धवान्, स्वजनं हि कथं हत्वा सुखिनस्याम माधव. ये वक्तुमिच्छन्ति कृपया हस्तमुन्नयन्तु. वस्तुतः गृहकार्यम् अस्मिन् पर्याये बहु विलम्बेनैव अप्लोड् कृतम्, क्षमां याचे. अहं जानामि गुरुवासरे एव कार्यव्यस्ततया पूर्वं कर्तुं न शक्तवती. इंदिरा देवी, यू हैव टू अनम्यूट योरसेल्फ. यू हैव टू क्लिक ऑन द माइक्रोफोन टू अनम्यूट. यदि वक्तुम इच्छति.
तस्मात् अर्हाः वयं हन्तुं धार्तराष्ट्रान् स्वबान्धवान् स्वजनं कथं हत्वा सुखिनः श्याम माधवः
माधव
सन्धिः माधव तस्मात् प्लस् न अनुनासिकसन्धिः
सम्यक्
न प्लस् अर्ह नार्ह सवर्णदीर्घसन्धिः अर्हाः प्लस् वयं विसर्गसन्धिः लोपः भवति
सम्यक्
स्वजनं प्लस् हि स्वजनं हि अनुस्वारसन्धिः
सम्यक् सन्धिः तावदेव तत्र सर्वत्र यत्र अनुस्वारः वयं हन्तुं कथं सर्वत्र अनुस्वारसन्धि
दातृराष्ट्रान् स्वबान्धवान् द्वितीयविभक्तिपदः तस्मात् पञ्चमी विभक्तिः वयं प्रथमा सुखिनः प्रथमा स्वजनम्
अर्हाः
द्वितीया
सम्यक् अर्हाः अपि प्रथमा
अर्हाः अपि प्रथमा प्रश्नं के अर्हाः न क्रियापदम् अर्हाः अर्हाः न भवामः अध्याहारं कृतवन्तः
सत्यं
के अर्हाः न वयम् अर्हाः किं कर्तुम् अर्हाः न हन्तुं कर्तुम् अर्हाः न
हन्तुं
कान् हन्तुं धार्तराष्ट्रान् हन्तुं कीदृशान् धार्तराष्ट्रान् स्वबान्धवान् कस्मात् अर्हाः न तस्मात् अर्हाः न कथं स्यां के कथं स्यां वयं कथं स्याम कीदृशं कीदृशाः कथं स्याम सुखिनः किं कृत्वा कथं स्याम हत्वा कं हत्वा स्वजनं हत्वा अतः बैकिली अवर् ओन् स्वबान्धवान् ओन् रिलेटिव् धृतराष्ट्रवान् माधव सम्बोधनप्रथमा माधव हौ केन् बी हेपि बै किलिङ्ग् अवर् ओन् relatives and relatives that's what
uttamam vyakaranamshah
vyakaranamshah
vibhakti vachanam prayatnam
vibhakti vachanam dartrashan swabandhavan dvitiya vibhakti bahuvachanam
अकारान्तः पुल्लिङ्गः
अकारान्तः पुल्लिङ्गः द्वितीयविभक्ति बहुवचनम् कस्मात् अस्मत् शब्दः पञ्चमी विभक्ति
तद् शब्दः पञ्चमी
तद् शब्दः पञ्चमी विभक्ति अर्हाः अकारान्तः पुल्लिङ्गः बहुवचनः प्रथमाविभक्ति बहुवचनः अर्थः वयम् अस्मच्छब्दः प्रथमाविभक्ति बहुवचनम् स्वजनम् अकारान्तः हकारान्तः द्वितीया विभक्ति पुल्लिङ्गः द्वितीया विभक्ति एकवचनम्
सम्यक्
वचनम् सुखिनः अकारान्तः पुल्लिङ्गः प्रथमा विभक्ति
नकारान्तः सुखी सुखिनौ सुखिनः सुखिन् शब्दः
सुखिन् शब्दः
नकारान्तः पुल्लिङ्गः
पुल्लिङ्गः
प्रथमाविभक्तिः बहुवचनम्
बहुवचनं
श्याम
श्याम
अत्र स्यात् स्यातां स्युः अस् धातोः विधिलिङ् लकारः उत्तमपुरुषः बहुवचनम्
अस् धातुः
अस् धातुः विधिलिङ्लकारः उत्तमपुरुषः बहुवचनं वयं स्याम इति स्यात् स्यातां स्युः स्याः स्यातं स्यात स्याम स्याव स्याम कथं भवेम इत्यर्थः हौ केन् वि तत् विधिलिङ्लकारः अत्र सम्भावना पासिबिलिटि How can we possibly be happy? Sukhinasyama. Hantum hatva iti avyayam.
Avyayam. Hantum hatva. Svapra. Hantum hatva.
Samyak. Uttamam. Dhanyavada.
Okay.
Sotra vakyadvayam asti prathama vakye arhaha na smaha athava bhavamaha. इति अभ्याहारः कर्तव्यः अर्हाः योग्याः न सो वी डु नाट् डिजर्व् टु किल् सो अर्हाः न के अर्हाः न वयं वयं नाम वयं पाण्डवाः पाण्डवपक्षे ये सन्ति ते किं कर्तुं न अर्हाः हन्तुं मारयितुं कान् हन्तुं धार्तराष्ट्रान् धृतराष्ट्रस्य पुत्रान् धृतराष्ट्रस्य पुत्रः धार्तराष्ट्रः यथा दशरथस्य पुत्रः दाशरथिः एवं पाण्डोः पुत्रः पाण्डवः धृतराष्ट्रस्य पुत्रः धार्तराष्ट्रः सो धृतराष्ट्रस्य पुत्रान् कौरवान् मारयितुं वयं न अर्हाः सो कीदृशान् धार्तराष्ट्रान् स्वबान्धवान् अस्माकम् एव बन्धवः सो तान् हन्तुं न अर्हाः किमर्थं न अर्हाः तस्मात् तेन कारणेन अर्जुनः एतावन्तं कालं सर्वाणि कारणानि उक्तवान् किल सो तेन कारणेन पूर्वं यदुक्तं तस्यैव तेन निर्देशः क्रियते इति प्रथमं वाक्यं द्वितीयं वाक्यं स्याम भवेम कीदृशाः भवेम के भवेम वयम् इति अत्रापि अध्याहारः भवति कीदृशाः भवे स्याम सुखिनः सन्तुष्टाः स्याम किं कृत्वा हत्वा मारयित्वा कान् हत्वा स्वजनम् सो स्वबान्धवान् धार्तराष्ट्रान् मारयित्वा कथं केन प्रकारेण सुखिनः स्याम अर्थात् सुखिनः न स्याम इत्यर्थः सो यत्र यत्र प्रश्नः पृच्छ्यते काकुः इत्युच्यते सो आल् दीस् क्वश्चन्स् वेन् ही सेस् हौ केन् वि बी हेपि कः अर्थः वि विल् नाट् बि हेपि इत्येव अर्थः पूर्वमपि किं नो राज्येन गोविन्द राज्येन किं भवति किमपि न भवति सो एतादृशः प्रश्नः यत्र पृच्छ्यते तत्र निषेध रूपम् अर्थम् एव स्वीकुर्मः सो कथं स्याम इत्युक्ते न स्याम इत्यर्थः न भवामः कीदृशाः न भवामः सुखिनः न भवामः माधव इति सम्बोधनम् आदौ योजनीयम् अन्ये अंशाः ज्ञाताः इति भावयामि स्याम इति विशिष्टं क्रियापदं विधिलिङ्लकारः उत्तमपुरुषः बहुवचनम् अन्यत् किमपि प्रष्टुमिच्छन्ति वा हन्तुं हन् धातुः तुमुन्नन्तम् अव्ययम् एवं हत्वा हनधातुः क्त्वान्तम् अव्ययम्, कथम् इति अव्ययम्, हि इति अव्ययम्, अन्यत् सर्वं सरलमस्ति. सुखिनः इति पदं सुखिन् नकारान्तः पुल्लिङ्गः प्रथमाविभक्तौ बहुवचनं, सुखी सुखिनौ सुखिनः. एकः प्रश्नः कुत्र गतः प्रश्नः, तत्र काकुः इति किम् इति पृष्टम्. सो प्रश्नः पृच्छ्यते कथं स्याम इति प्रश्नः, तत्र प्रश्नः तात्पर्यं न. वयं यदा किमपि प्रश्नं पृच्छामः, यथा अहं पृच्छामि तत्र सुखिनः इति किं पदम्, तस्य उत्तरं भवति अस्तु नकारान्तः पुल्लिङ्गः, सः सामान्यः प्रश्नः. किन्तु अर्जुनः यदा कथं स्याम इति पृच्छति, तस्य आशयः किं, कृष्णेन उत्तरं वक्तव्यं वा, कथं त्वं सुखी भवसि इति, न. तस्य आशयः न भवामः इति, तादृशः प्रश्नः यत्र उत्तरं नापेक्ष्यते, निषेधं सूचयितुं प्रश्नरूपेण तस्य निषेधः. इट् इस् जस्ट् एन् एक्स्प्रेशन् आफ् वि विल् सर्टेन्लि नाट् बि हेपि इत्यर्थे, हौ केन् वि बि हेपि इति पृच्छ्यते. तस्य काकुः इति उच्यते. सो हि इत्यस्य कः अर्थः इति पृष्टम्. सो हि इस् अगेन् एन् एक्स्प्रेशन्. सो यथा अत्र स्वजनानेव हत्वा, अस्माकं जनान् एव हत्वा, सो एवकारार्थे अवधारणार्थे अत्र हि, हि इत्यस्य स्वयम् अर्थः न भवति. कदाचित् पादपूरणार्थम् उपयुज्यते, कदाचित् एन् एक्स्प्रेशन् आफ् यु नो सो पुट् फोर्स्फुल् एक्स्प्रेशन् इति उच्यते. तत्र कुत्रचित् अवधारणां दातुम् उपयोगः क्रियते. सो अत्र स्वजनं हि हत्वा इति वक्तुं शक्यते, अथवा हि यस्मात् येन कारणेन इत्यपि वक्तुं शक्यते. अन्ये केऽपि प्रश्नाः सन्ति वा, अग्रिमं श्लोकं प्रति गच्छामः. अहो बत महत्पापं कर्तुं व्यवसिता वयं, यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः. केऽपि वक्तुमिच्छन्ति, अविनाश्रयति.
पदविच्छेद अहो बत महत पापं कर्तुं व्यवस्थाः वयं, यत् राज्यसुखलोभेन हन्तुं स्वजनम् उद्यता. देन् सन्धीज् there is only hantum, there is anuswara sandhi.
Papam kartum hantum,
papam ha, papam kartum hantum, only three anuswara sandhi, otherwise there are no sandhi. Vyavasthita visarga lopa sandhi.
Vyavasthita vayam, vayam,
ha, vayam, these are sandhis. Then kriyapad here, what I think is adharut kriyapad is sma. अध्याहारः क्रियापदः स्म. प्रथमा व्यवस्थिताः उद्यताः वयम्, या पापं महत् स्वजनम्, तृतीया राज्यसुखलोभेन. अदर्स् आर् आल् अव्यय, यत् हन्तुं कर्तुम् अहो बत्
अहो बत यत् इति अव्ययं न, यत् यः यव्ये तस्य यत् इति नपुंसकलिङ्गे प्रयोग, यत् शब्दः,
हा यत् शब्दः नपुंसकलिङ्गे द्वितीया विभक्ति यत्
प्रथमा एव यत्
हा यत् प्रथमा ओके
जस्ट् अ कनेक्टिङ्ग् वर्ड्
ओके
अग्रेव
बट् इन् इङ्ग्लिश् इट् मीन्स् यत् मीन्स् देट् नो
विच् इट् मीन्स् दट् विच् सो सः यः इति अत्र यत् यस्मात् इत्यर्थे प्रयोगः
ओके स्म स्मः क्रियापद सो के स्मः वयं कीदृश वयं व्यवस्थिताः किमर्थं स्म कर्तुं किं कर्तुं पापं कर्तुं कीदृश पापं महत् पापं नंतर कीदृशं सेकंड सेंटेंस कीदृशं वयं उद्यताः हन्तुं किं हन्तुं स्वजनं केन हन्तुं राजसुखलोभेन देन् अन्वयरचना अहोबत् वयं महत् पापं कर्तुं व्यवस्थिताः यत् राज्यसुखलोभेन स्वजनं हन्तुम् उद्यताः
सम्यक्
and tatparya also I put same thing because we can just put some other words but means alas we are doing papam big papam we are on the verge of making big sin only for enjoying the rajya and sukha
Sammit.
And we are also on the verge of killing the Swajanam, our own people. Then Vakarnaunsh, Aho is Avyam, Bat also is Avyam, Vayam, Dataranth, Sarvalingeshu, Uttam Purusha, तृतीय वचन बहुवचन महत तकारांत नपुसक लिंगे द्वितीय विभक्ति एक वचनम पापम अकारांत नपुसक लिंगे द्वितीय विभक्ति एक वचनम कर्तुम इज अव्ययम यत आई टुक एज आईओएम बट यू आर सेइंग इट इज सपोज टू बी तकारांत
दकारांत
हां दकारांत इज अ पुल्लिंगम और नपुसकलिंग नपुसकलिंग उच्च पुरुष हियर इट विल कम दिस इज अ प्रथम विभक्ति एकवचनम हंतुम अव्ययम व्यवस्थिताः अकारांत पुल्लिंग प्रथमा विभक्ति बहुवचनम उद्यताः अकारांत पुल्लिंग प्रथमा विभक्ति बहुवचनम राज्य सुखलोभेन अकारांत पुल्लिंग तृतीया विभक्ति एकवचनम स्वजनम अकारांत नपुसकलिंगे द्वितीयाभ्यक्ति एकवचनम्
पुल्लिङ्गः स्वजनः
पुल्लिङ्ग सो दिस् इस् दि व्याकरणांश
सम्यक् उत्तमं धन्यवादः
ओके थैंक यू
अत्र अहोबत इति दुःखसूचकम् अथवा आघातसूचकम् अव्ययम् इट्स् एन् एक्स्प्रेशन् एन् एक्स्क्लमेशन् ओ अलाक् इत्यर्थे दुःखसूचकम् अव्ययद्वयम् अहोबत इति तस्य तथा अन्वयः न भवति सो स्मः के स्मः वयं स्मः कीदृशाः स्मः व्यवसिताः सिद्धाः सज्जाः स्मः किमर्थं व्यवसिताः कर्तुं विधातुं So kim kartum vyavasitaha papam. So papam papa shabdasya agham duritam vidhatum sajjaha. Kidrisham papam mahat papam. Mahat papam bahu tivram papam acharitum vayam siddhaha. Vayam bahu nindatmakam mahatityasya mahat shabdasya papa shabdena sahanvaye bahu nindatmakam karyam acharitum vayam siddhaha. Yat yat iti vakyadvayam yojayati. Kimartham evam ichyate yasmat punaha smaha kidrishaha smaha udyataha udyataha atrapi siddhaha itteva arthaha kim kartum siddhaha hantum marayitum kam hantum svajanam svabandhavan marayitum vayam prasthitaha sajjaha smaha athava yuddhe sammilitaha smaha kena karanena rajya sukhalobhena. So prabhutvasya karanena bhoganam lobhaha lobhaha nama durasha. So prabhutvasya vishaye bhoganam cha vishaye durashaya svabandhavan eva marayitum vayam sthitaha smaha vayam siddhaha smaha. इदानीं के प्रश्नाः अत्र महत् पापं महत् इति तकारान्तं पदं सो तकारान्तः नपुंसकलिङ्गः महत् शब्दः सो महत् पापं सो बत इत्यस्य विशिष्य अर्थः नास्ति इट् इस् जस्ट् एन् एक्स्प्रेशन् अहो बत यथा अय्यो इति उच्यते कन्नडभाषायां तमिळ्भाषायां वा अलास् इति आङ्ग्लभाषायाम् उच्यते सः अर्थः सो उद्यतः इत्यस्य कः अर्थः उद्यतः सिद्धः इत्यर्थः सो सेट् औट् टु डू संथिङ्ग् कर्तुम् उद्युक्तः उद्यताः इति तप्रत्ययान्तं वा आम् उद्यतः व्यवसितः इति उभयमपि तप्रत्ययान्तम् सो उद् यम् यम धातुः तत्र तप्रत्ययः उद्यतः तत्र उद्यतः इत्यस्य कः प्रश्नः इति स्मः के स्मः वयं स्मः वयं कीदृशाः स्मः उद्यताः स्मः नाम सिद्धाः स्मः अत्र राजसुखलोभेन इत्यत्र कः समासः इति अर्थात् राज्यस्य सुखं राज्यसुखं वा राज्यं च सुखं च उभयथापि वक्तुं शक्यते राज्यं राज्यमेव सुखम् इत्युक्ते राज्यात् सुखं प्राप्यते इति यदि अस्ति राज्यस्य सुखं द प्लेजर् आफ् किङ्ग्डम् इति यदि अर्थः स्वीक्रियते तदा राज्यस्य सुखं सो राज्यसुखस्य लोभेन सो प्रभुत्वस्य अधिकारस्य यः आनन्दः तस्य आशया इति वक्तुं शक्यते अथवा राज्यं सुखं च राज्यं प्रभुत्वं तेन सह सुखं नाम भोगाः पूर्वमपि श्लोकेषु अर्जुनः सर्वत्र पृथक् पृथगेव वदति किं नो राज्येन गोविन्द किं भोगैः सो राज्यं भिन्नं भोगाः भिन्नम् सो अतः राज्यं सुखानि इति पृथक् पृथगेव स्वीकर्तुं शक्यते
महालक्ष्मी कः प्रश्नः नावगतम् उद्यताः
कैन वी से अन्वयः जिकांसकाः
जिकांसकाः इत्यस्य कः अर्थः
वांटेड टू किल
जिकांसुः हन्तुम् इच्छुः उद्यत शब्दस्य हननेच्छा न भवति अत्र उद्यत इज जस्ट रेज्ड आई मीन अथवा स्टार्टिंग आउट यदा तत्र शस्त्रोद्यताः इत्यादि भवति एन एसोसिएशन ऑफ अ वर्ड लाइक अ वेपन और समथिंग देन इट कैन बी इंटरप्रिटेड एज किलिंग तो केवलम उद्यत शब्दस्य सः अर्थः न भवति कार्यं कर्तुम उद्यतः कर्तुम सिद्धः कर्तुम आरब्धवान् इत्यर्थः हननस्य एतत् नास्ति केवल उद्यतशब्देन तत् न भवति हन्तुम् उद्यताः इत्यत्र हन्तुं वयं सिद्धाः इत्यर्थः अन्यत् किमपि अस्तु अग्रे गच्छामः विल मूव ऑन टू द नेक्स्ट श्लोक भगवद्गीतायाः प्रथमाध्यायस्य अयम् अन्तिमः श्लोकः अर्जुनविषादयोगस्य अन्तिमः श्लोकः एवमुक्त्वा अर्जुनसङ्ख्ये रथोपस्थ उपाविशत् विसृज्य सशरं चापं शोकसंविग्नमानसः केपि वक्तुमिच्छन्ति महेश्वरि महेश्वरी
प्रयत्नं करोमि एवम् एवम् उक्त्वा 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 अर्जुनः एवम् एवम् उक्त्वा अर्जुनः सङ्ख्ये रथोपस्थे उपविशत् विसृज्य सशरं चापं शोकसंविग्नमानसः तद् एवम् उक्त्वा अर्जुनः संख्ये रथोपस्थे उपाविशत् विसृज्य सशरं चापं शोक संविग्नमानसः Sandhi atra uktva plus arjunaha uktva arjunaha savarna dirghasti purvam bhavateva uktavati ratopaste upavishad lopaha asti
atra
ye
sandhihi ततः लोपः स्वयः ते इमे त इमे इति यथा भवति तथा सो रथोपस्थय उपाविशत् इति भवति यदा यन्तवन्तादेशसन्धिः क्रियते अयादेशः क्रियते तस्य यकारस्य लोपः भवति रथोपस्थ उपाविशत् सो यान्तवन्तादेशसन्धिः लोपः यकारस्य लोपः
अस्तु पदचेरः सन्धिः फिनिश
अग्रे
इदानीं वाक्यविश्लेषणम् एवं
क्रियापदं
क्रियापदम् उपाविशत्
प्रथमा विभक्तिः
अर्जुनः शोकसंविघ्नमानसः प्रथमा विभक्तिः द्वितीया विभक्ति एवम्
इति अव्ययम्
एवम् अव्ययम् सशरं चापम्
इति द्वितीया विभक्ति
तृतीया विभक्ति नास्ति
सप्तमी विभक्तिः रथोपस्थे संख्ये
सप्तमी विभक्तिः
अव्ययम्
एवं अव्ययम् उक्त्वा विसृज्य अन्वयरचना अर्जुनः अकारान्तः पुल्लिङ्गः
अन्वयः प्रश्नरूपेण आकाङ्क्षक्रमः
अन्वयरचना अस्तु उपाविशत् कः उपाविशत् अर्जुनः उपाविशत् कीदृशः अर्जुनः शोक संविघ्नमानसः शोकसंविघ्नमानसः अर्जुनः उपाविशत् किं कृत्वा उपाविशत् उक्त्वा उपाविशत् कुत्र उपाविशत् रथोपस्थे उपाविशत्
पुनः कुत्र सङ्ख्ये वयमपि सङ्ख्ये इत्युक्ते रणरङ्गे युद्धभूमौ इत्यर्थः रथोपस्थे रथस्य पृष्ठभागे उपाविशत् उपविष्टवान्
सङ्ख्ये अहं कुत्र उक्त्वा सङ्ख्ये उक्त्वा रथस्य पृष्ठभागे उपाविशत् पुनः किं कृत्वा विसृज्य कं विसृज्य चापं विसृज्य कीदृशं सशरं चापम्
उपाविशत् उपविष्टवान् कः उपविष्टवान् अर्जुनः उपविष्टवान् कीदृशः अर्जुनः शोकसंविग्नमानसः दुःखः सम्पूर्णचित्तः तस्य मनः पूर्णं दुःखेन पूरितम् आसीत् सो दुःखपूरितचित्तः अर्जुनः उपविष्टवान् कुत्र उपविष्टवान् सङ्ख्ये रणाङ्गणे पुनः कुत्र
इदानीं अतिथि मम गृहम् आगच्छति वरलक्ष्मी व्रतम् आसीत् अद्य अहम् अहं गच्छामि क्षम्यताम्
चिन्ता नास्ति
नमस्ते
सो कुत्र उपाविशत् सङ्ख्ये नाम रणाङ्गणे रणाङ्गणे कुत्र रथोपस्थे रथस्य पृष्ठभागे उपविष्टवान् किं कृत्वा उपाविशत् उक्त्वा एवम् उक्त्वा एवं नाम पूर्वोक्तप्रकारेण कथयित्वा पूर्वं यद्यदुक्तवान् तत्सर्वं नकांक्षे विजयं कृष्ण इत्यादि सर्वम् उक्त्वा अर्जुनः उपविष्टवान् पुनः किं कृत्वा विसृज्य विसृज्य त्यक्त्वा किं विसृज्य चापं धनुः त्यक्त्वा कीदृशं धनुः सशरं धनुः बाणसहितं धनुः त्यक्त्वा सः पूर्वं धनुषि बाणमपि सन्धाय योद्धुं सिद्धः आसीत् इदानीं बाणेन सहितं धनुः अधः क्षिप्त्वा स्वयं शोकसंविग्नमानसः दुःखपूरितचित्तः उपविष्टवान् इत्यर्थः सो व्याकरणांशान् अहमेव वक्ष्यामि एवम् इति अव्ययम् उक्त्वा वच् धातुः क्त्वान्तम् अव्ययम् अर्जुनः अकारान्तः पुल्लिङ्गः प्रथमाविभक्तौ एकवचनम् सङ्ख्ये सङ्ख्यम् इति रणाङ्गणम् इत्यर्थः अकारान्तः नपुंसकलिङ्गः सप्तमी विभक्तिः एकवचनम् रथोपस्थे रथोपस्थम् अकारान्तः नपुंसकलिङ्गः सप्तमी विभक्तिः एकवचनम् उपाविशत् सो उप अविशत् विष धातुः उप इति उपसर्गः सो यदा उपसर्गः भवति तदा अकारः उपसर्गस्य अनन्तरं भवति न तु उपसर्गात् पूर्वम् प्रविशति इत्यस्य लङ्लकारे प्राविशत् प्र अविशत् एवमेव उप अविशत् उपाविशत् उपाविशत् उप इति उपसर्गः विषधातुः लङ्लकारे प्रथमपुरुषे एकवचनम् उपाविशत् विसृज्य अव्ययम् ल्यबन्तम् अव्ययम् सशरम् चापम् चापः अकारान्तः पुल्लिङ्गः द्वितीया विभक्तिः एकवचनम् तस्य विशेषणम् अतः सशरम् इत्यपि अकारान्तः पुल्लिङ्गः द्वितीया विभक्तिः एकवचनम् शोकसंविग्नमानसः अकारान्तः पुल्लिङ्गः प्रथमाविभक्तौ एकवचनम् एनि क्वश्चन् प्रश्नाः सन्ति वा अत्र प्रथमाध्यायः समाप्तः एवमुक्त्वा दिनसङ्ख्ये रथोपस्थ उपाविशत् विसृज्य सशरं चापं शोकसंविग्नमानसः इति सो अग्रिमवर्गादारभ्य वयं केषाञ्चन सुभाषितानाम् अध्ययनं कुर्मः सो एवमेव अन्वयरचना पुनः सुभाषितानाम् अर्थगमनं भवति इदानीं पञ्चनिमेषाः सन्ति प्रहेलिकाद्वयं पश्यामः दशनिमेषाः सन्ति क्लेशः वृक्षाग्रवासी न च पक्षिजातिः तृणं च शय्या न च राजयोगी आपीतवर्णो न च हेमधातुः अतश्च ताम्रः सुरसः क एषः इति प्रहेलिका कः अर्थः वृक्षाग्रवासी वृक्षस्य अग्रे वसति किन्तु पक्षी न तु पक्षिजातिः वृक्षस्य अग्रे वसति किन्तु पक्षी न तृणं च शय्या तृणे शेते तृणस्य उपरि निद्रां करोति किन्तु राजयोगी न योगिनः तृणस्य उपरि निद्रां कुर्वन्ति इति प्रसिद्धं किल किन्तु एषः राजयोगी न सो वृक्षस्य अग्रे वसति तृणे शेते आपीतवर्णः सो आ नाम समन्तता पूर्णतः पीतवर्णः किन्तु सुवर्णं न सुवर्णं हेम न च हेमधातुः हेमधातुः नाम सुवर्णं गोल्ड् सो पीतवर्णः अस्ति किन्तु सुवर्णं न तर्हि कः एषः अतः ताम्रः सो सुवर्णं न अतः ताम्रः ताम्रः इस् कापर् सो सुवर्णं नास्ति तर्हि ताम्रः स्यात् सुरसः सम्यक् रसयुक्तः एषः कः इति प्रश्नः प्रश्नरूपे प्रहेलिका अस्ति केपि प्रयत्नं कुर्वन्ति वा वृक्षस्य अग्रे वसति तृणे शेते पीतवर्णः सो अतः ताम्रः इत्यत्र क्लू अस्ति तत्रैव सूचना अस्ति नारिकेलफलम् इति केनचित् उच्यते पीतवर्णं न नारिकेलफलं किल किन्तु फलम् इति युक्तमेव अत्र अतः ताम्रः बहुभिः उत्तरं सम्यगेव उक्तं सो अतः इत्यत्र न तः अतः यथा न धर्मः अधर्मः न तः अतः इति सो ताम्रः इत्यस्ति त आ म ऋ अः तत्र तकारं निष्कासयामः चेत् किं भवति अतः नाम तकारहीनः ताम्रः कः आम्रः आम्रफलम् इत्यर्थः सो अतश्च ताम्रः इत्यत्र सूचना अस्ति अतः नाम तकारहीनः ताम्रः ताम्रशब्दे तकारं निष्कासयामः चेत् आम्रः भवति आम्रफलम् इत्यर्थः सो वृक्षाग्रे वसति तृणे शेते सो आम्रफलानि पक्वं कर्तुं तृणे स्थापयन्ति तत्तु सामान्यः अभ्यासः सो पीतवर्णः अस्ति सुरसः रसवान् अस्ति अतः आम्रफलम् इति उत्तरम् अग्रिमप्रहेलिका अपूर्वोऽयं मया दृष्टः कान्तः कमललोचने शोन्तरं यो विजानाति स विद्वान् नात्र संशयः कमललोचने हे कमललोचने इति सम्बोधनं कस्यास्ति हे सुन्दरि इति अयम् अपूर्वः कान्तः कान्तः अत्यन्तं सुन्दरः रमणीयः अपूर्वः अत्यन्तं पूर्वं न दृष्टः अपूर्व इस् रेर् और् यूनीक् सो अपूर्वः कान्तः अत्यन्तं सुन्दरः कश्चित् शोन्तरम् अस्य अन्तः शो अस्ति सः मया दृष्टः यः विजानाति सः विद्वान् अस्य उत्तरं तावदेव प्रहेलिका अपूर्वः कान्तः शोन्तरं मया दृष्टः कः दृष्टः मया इति वक्तव्यं सो यः विजानाति सः विद्वान् अत्र संशयः न सो दिस् इस् जस्ट् अ फिल्लर् फार् द प्रहेलिका वस्तुतः प्रहेलिका एतावदेव अपूर्वोऽयं मया दृष्टः कान्तः शोन्तरं तत् किं स्यात् इति अत्र अपूर्वः कान्तः इत्यत्र अपूर्वः नाम अकारः पूर्वः आदौ अस्ति एवं शोन्तरम् शो शो इति वर्णः अन्तरम् अन्तरम् नाम मध्यम् इत्यर्थः कान्तः क ककारः अन्तः अन्ते अस्ति तत्र अपूर्वः कान्तः इति शब्दयोः द्वयम् अर्थः न कान्तः सुन्दरः अपूर्वः कुत्रापि अदृष्टः इत्यर्थः न अपूर्वः क अन्तः मध्ये शो किमेतत् उत्तरं किम् सर्वे ज्ञातवन्तः सो अ शो कः सो अपूर्वः कान्तः शोन्तरम् सो अशोकः अशोकवृक्षः इत्यर्थः तत् प्रहेलिकायाः उत्तरम् अत्र लौकिकन्यायान् कांश्चित् पश्यामः घट्टकुटी प्रभातन्यायः इत्यस्ति घट्टकुटी इत्यस्य टोल् स्टेशन् इत्यर्थः तत्र कश्चित् प्रसङ्गः किञ्चिद् यानं शकटं घट्टकुटीम् उपसृत्य आगच्छति सायङ्काले सूर्यास्तमानकालः तदा घट्टकुट्याः समीपे आगच्छति तत्र धनं दातव्यम् इदानीं यथा अस्ति तथैव पूर्वमपि आसीत् तस्य मार्गस्य उपयोगार्थं धनं दातव्यम् सः किं चिन्तयति अत्र एवम् अनेन मार्गेण गच्छामि चेत् धनं दातव्यम् अहं मार्गान्तरं स्वीकृत्य पुनः कुत्रचित् वनस्य अन्तः गत्वा पुनः निर्गत्य अग्रे गच्छामि किञ्चित् धनस्य व्ययः मास्तु इति विचिन्त्य सः मार्गान्तरं स्वीकृत्य गच्छति डिवियेशन् स्वीकृत्य गच्छति सूर्यास्तमानसमयः रात्रिः भवति सः मार्गभ्रष्टः बहु अटति आरात्रम् अटित्वा प्रातः पुनः मार्गं प्राप्नोति पश्यति कुत्र अस्ति तस्याः एव घट्टकुट्याः निकटम् अस्ति सो प्रभाते पुनः तामेव घट्टकुटीं प्राप्तवान् आरात्रं बहु श्रमेण अटित्वा मार्गभ्रष्टः भूत्वा पुनः अपि तत्रैव प्रत्यागतवान् इत्यर्थः यथा आङ्ग्लभाषायां बेक् टु स्क्वेर् वन् इति प्रयुज्यते बहु श्रमम् ऊढ्वा अपि सः निरर्थकः श्रमः तत्र केनापि प्रयोजनं नासीत् पुनः यतः आरम्भः तत्रैव प्रत्यागमनम् निरर्थकः श्रमः इत्यर्थे अयं न्यायः प्रयुज्यते घट्टकुटी प्रभातन्यायः गुणाक्षरन्यायः एकेपि ताडपत्राणि दृष्टवन्तः चेत् ज्ञायते गुणाक्षरः गुणाक्षरम् इति बहुधा उपयुज्यते गुणः नाम कीटविशेषः पेपर् वर्म् यत् पत्रादिषु रन्ध्रम् उत्पादयति सः कीटः गुणः इत्युच्यते तत्र यदा सः खादति तानि पत्राणि तत्र रन्ध्रं भवति कदाचित् तत् अक्षररूपेण भवति तालपत्राणि पश्यामः चेत् द होल्स् आर् द वेर् द इन्सेक्ट् हेस् ईटन् इट् अप् तत्र अक्षरम् इव भासते वस्तुतः तस्य तत्र तात्पर्यं नास्ति सः यत्किमपि करोति किन्तु तत्र अक्षरम् इव दृश्यते तदेव गुणाक्षरन्यायः इत्युच्यते सो यत्र अस्माकं ज्ञानं विना अथवा विशेषप्रयत्नं विना किमपि सिद्ध्यति तत्र गुणाक्षरन्यायः पूर्वम् अन्यः अपि न्यायः दृष्टः काकतालीयम् इति सामान्यतः समाने अर्थे सो कोइन्सिडेण्टल् प्रयत्नं विशेषप्रयत्नं विना यत्किञ्चित् भवति तस्य अयं न्यायः प्रयुज्यते गुणाक्षरन्यायः एवं कूपखानकन्यायः इत्यस्ति कूपखानकः यः कूपं खनति तेन महान् श्रमः ओढव्यः भवति बहु मालिन्यमपि भवति यदा सः कूपं खनति तदा पाणिपादे सर्वत्र मृत् तिक्तं भवति, तस्य वस्त्राणि नष्टानि, एवं बहु मालिन्यं भवति, श्रान्तिः अपि भवति. किन्तु तत् मालिन्यं सा च श्रान्तिः कूपजलेन एव निवारयितुं शक्यते. सः यदा कूपं खनति, कूपात् जलम् उदेति, तेनैव जलेन तस्य मालिन्यस्य प्रक्षालनम् अपि भवति, श्रान्तेः निवारणं भवति, किञ्च अन्येषामपि अत्यन्तम् उपकारः भवति. कूपखानकन्यायः इत्युक्ते केनचित् कष्टम् ऊढ्वा किञ्चित् महत्कार्यं साध्यते, कार्यस्य सिद्धौ महान् श्रमः स्यात्, किन्तु तेन कार्ये तस्मात् कार्यात् यत् फलं भवति तत् सर्वमपि श्रमं निवारयति इत्यर्थः. सो इट् इस् यूस्ड् फार् अण्डर्टेकिङ्ग् ग्रेट् टास्क्. So there might be a lot of difficulty, lot of problems in achieving the task, but the end which we attain, it justifies all that effort. So yaha yaha shramaha udhaha sarveshu etat samajopayogishu karyeshu etat upayoktum shakyate. Satyam ye karyam kurvanti tesham kashtam bhavatyeva. Asmakam yada vayam etadrisham karyam kartum udyuktaha तत्र श्रमः भवति, किन्तु फलं मनसि निधाय कार्यम् अनुवर्तनीयं, मध्ये न त्यक्तव्यम्. सो इफ् यु स्टाप् इट् इन् बिट्वीन् क्लेशः भवति, प्रयोजनं नास्ति इत्यर्थः. अन्तिमः अद्यतन न्यायः मात्स्यन्यायः इति. सामान्यतः मत्स्याः यत्र दृश्यन्ते भिन्न आकारकाः मत्स्याः भवन्ति जले, विशिष्य समुद्रे. तिमिः इत्युक्ते एकः लघु मत्स्यः भवति, बृहन्मत्स्यः भवति, तिमिङ्गिलः, तिमिं गिलति, खादति इत्यर्थे तिमिङ्गिलः इत्युच्यते. सः किञ्चित् बृहन्मीनः, तमपि गिलति तिमिङ्गिलगिलः. सो तिमिङ्गिलमपि गिलति, तं बृहन्तं मीनमपि अन्यः मीनः खादति, सः इतोपि अत्यन्तं महान् भवति इत्यर्थः. सो देर् आर् वेरियिङ्ग् सैजेस् आफ् फिश्. सो लघु मत्स्यान् बृहन्मत्स्यः खादति, बृहन्तं मत्स्यम् इतोपि बृहन्मत्स्यः खादति इत्येवं. तिमिङ्गिलगिलोऽप्यस्ति तद्गिलोऽप्यस्ति राघव इति योगवासिष्ठे एव कथयति सः. सो यत्र एवं बलम् आश्रित्य केचन अन्येषां दमनं कुर्वन्ति, तत्र अयं न्यायः उपयुज्यते. ओके, सो वेर् द पवर् इस् डिफरेण्ट्, सो द स्ट्राङ्गर् टेक् अड्वान्टेज् आफ् द वीक्. सो तस्मिन् प्रसङ्गे मात्स्यन्यायः उपयुज्यते. सो अद्य वयं सन्धिषु अमुडागमसन्धेः विषये ज्ञातवन्तः, अभ्यासानपि दृष्टवन्तः, प्रहेलिकाद्वयं दृष्टं, वृक्षाग्रवासी न च पक्षिजातिः, एवम् अपूर्वोऽयं मया दृष्टः इति, केचन लौकिकन्यायाः दृष्टाः. अग्रिमसप्ताहे सेप्टेम्बर् मासस्य प्रथमे दिनाङ्के अनुवर्तयामः. मङ्गलं कुर्मः, अनन्तरं प्रश्नाः सन्ति चेत् पृच्छन्तु. गुरुरेव गतिर्गुरुमेव भजे, गुरुणैव सहास्मि नमो गुरवे. न गुरोः परमं शिशुरस्मि, गुरोर्मतिरस्ति गुरौ मम पाहि गुरो. केऽपि प्रश्नाः सन्ति वा?
Question. In the sandhi that we split, shad namani, the namani, how did that become Murdhanya Nakaraha?
Should not happen there. I should check from where I got the word actually. I was thinking of it.
Okay.
It's by Shtutva, but there is a Shtutva Nishedha for that this one, because Shtutva is allowed only for Naam, Navati and Nagari. So it should actually be Shan Namani.
Okay. I got confused because after the Shakara, there is only Nakara in Murdhanya, and then it follows by another, what is it, Danta?
The rules for Shtutva are there. You have Tavarga, and therefore the Nakara can become the Nakara. So, Shtutvasya Niyamaha Asti, Kintu Shtutvasya Nishedhaha Api Asti. There is a specific rule which prevents Shtutva there.
Could you repeat? Sorry,
I get into it actually. I mean, it's maybe I'll make it separately because I don't want to confuse everybody because it's we haven't got into the rules of Sutva yet, as in the Panini Sutra. So just send me an email, I'll reply to it.
Okay, thank you.
Purvatana Varge Ekaha Prashnaha Asit Mahikrute Iti. Mahyaha krute iti avyayam eva. So I have given that in the answer file. So krute iti avyayam. Mahalakshmi.
There is a question. In the last Bhagavad Gita Sloka, the second one, Naha, this is Shashti, no Shashti Vibhakti. But you have asked the question of Tritiya,
Asmavihi? Because you can ask with Shashti. The Tritiya was just to clarify the meaning that it is the Karta. What was the shloka?
Yeshamarte Kankshitam, no Rajam.
Kankshitam. So Asmakam. Ishtam kankshitam tatra asmakam iti vastutaha tritiya asmabhihi kankshitam abhitsitam ityarthaha tatra tritiya api bhavati shashti api bhavati arthasya avagamanartham tritiya prayukta shashti api prayuktum shakyate esham kankshitam naha kankshitam ityeva shuddham naha iti shashti ataha prashnaha api shashtyam arthasya avagamanartham tritiya prayukta.
Okay,
Daniela. So, also two more things about last class, which I wanted to clarify. Tatra prayoga dvayam asti. Nakankshe vijayam ityatra kankshe iti atmane pada prayoga. Evam ghanatopi madhusudana ityatra ghanataha iti padam. Eta dvayam api vastutaha. Na shuddham arsha prayogaha ityuchyate kadachit vishishya ramayanam mahabharatam etadrisheshu rishi praniteshu granthesu apaniniyaha prayogaha. So prayogas which cannot be derived through the Paninian system. Okay, yatha kankshati iti parasmai padi dhatuhu tatra atmane pade prayogaha krutaha tatha padavyatyayaha bhagavadgitayam ramayanadishu bahudha drishyate. Asmabhihi tu vastutaha parasmai padeva prayogaha kartavyaha rishibhihi kritam ityataha arsha prayogaha iti uchyate evam ghanataha vastutaha hataha ityeva rupam maritaha ityarthe hanudhatoho hataha ityeva rupam bhavati ghanataha iti prayuktam tasmin arthe svadvayam api arsha prayogaha iti asmabhihi uchyate. Okay, so we cannot use those prayogas ourselves. It is wrong. But Rishi Pranite Granthe Yatha Asti Tatha Asmabhihi Angi Kriyate Ataha Eta Drishaha Prayogaha Arsha Prayogaha Iti Uchyante. Kasti Prashnaha Agrima Vargasya Homework Kimiti Agrima Varge Shlokaha Kopi Nasti. So we will start with Subhashita's Anantaram Diyate. सन्धेः यत् गृहकार्यमस्ति तदहम् अप्लोड् करिष्यामि. सो ऐल् अप्लोड् द क्वश्चन्स् आन् सन्धि अण्ड् होप्फुलि डू इट् अर्लियर् दिस् वीक् सो देट् यु केन् हेव् अ लुक् एट् इट् बिफोर् द नेक्स्ट् क्लास्. अस्तु तर्हि अग्रिमवर्गे मिलामः.